सर्वेभ्यः नमस्कारः, नूतनवर्षस्य शुभाशयाः च. तर्हि अद्य आरभ्य शनिवासरेषु स्वरूपमहोदयस्य पुनरागमनपर्यन्तं न्यायशास्त्रस्य अवलोकनवर्गाः प्रचलन्ति. एतेषु वर्गेषु स्थूलरीत्या विद्याधर्याम् एतावत्पर्यन्तं यत्किमपि अधीतम् अस्माभिः, तस्य स्थूलरीत्या परिशीलनं भवति. इत्युक्ते यथा वाक्यशः खण्डशः कुर्मः सामान्य अस्माकं वर्गे, तथा न स्यात्, किन्तु मुख्यसिद्धान्तानां विषयाणाम् अवलोकनम् अवश्यं भवति. अपि च अस्माकं वर्गे अद्य केचन नूतनाः सन्ति, तर्हि नूतनेभ्यः वदामि यत् भीतिः मास्तु. यद्यपि स्थूलरीत्या एव परिशीलनं भवति, यद्यपि खण्डशः वाक्यशः परिशीलनं न स्यात्, तथापि यस्य कस्यापि प्रश्नः अस्ति चेत्, किमपि न अवगतं चेत् कृपया उच्यताम्. अस्माकं वर्गे बहवः प्रगतछात्राः सन्ति, तर्हि सर्वेषां सहायं भविष्यति एव नूतनानाम् अध्यापने. इति कृत्वा आरभामः. यत्र नूतनतया केन आगतम् अधुना, कोऽपि अस्ति वा? तर्हि रत्ना भगिनी, रविमहोदय, बालसुब्रह्मण्यमहोदय, सव्यसाचीमहोदय, वेङ्कटेशमहोदय, सरला भगिनी, विद्याशङ्करमहोदय, जगन्नाथमहोदय, द्रोणमहोदय, अनन्तरं कोऽपि अस्ति नूतनः? अस्तु, अस्तु, अस्तु महोदय, अनन्तकृष्णमहोदय. अस्तु, तर्हि न्यायशास्त्रस्य विषये परिचयत्वेन किञ्चित् वदामि. न्यायशास्त्रम् इति षट् दर्शनशास्त्रेषु अन्यतमः. षट् दर्शनशास्त्राणि सन्ति, आस्तिकदर्शनशास्त्राणि, साङ्ख्या, योगः, न्यायः, वैशेषिकशास्त्रं, वेदान्तः, मीमांसः इति. तेषु अन्यतमशास्त्रमस्ति न्यायशास्त्रम्. अपि च षण्णामपि शास्त्राणां लक्ष्यमस्ति आत्मनः ज्ञानम् इति उच्यते, किन्तु षण्णामपि मार्गः भिन्नः लक्ष्यं प्राप्तुम् इति. न्यायशास्त्रस्य मार्गः एवम् अस्ति यत् जगति यावन्ति वस्तूनि सन्ति, अथवा यावन्तः पदार्थाः सन्ति जगति, तेषां परिशीलनं कृत्वा, पदार्थानां परिशीलनं कृत्वा, पदार्थानां श्रेणीकरणेन, अस्तु अयं पदार्थः द्रव्यम्, अयं पदार्थः गुणः, अयं पदार्थः कश्चन सम्बन्धः इति श्रेणीकरणं कृत्वा कृत्वा आत्मनः ज्ञानम् अन्ततो गत्वा प्राप्नुवन्ति इति परिचयः अस्माभिः प्राप्तः आसीत् आरम्भे, न्यायशास्त्र न्यायवर्गस्य आरम्भे. इति न्यायशास्त्रस्य लक्ष्यम् अस्ति. अस्य विषये द्रोणमहोदय इतोपि किञ्चित् परिचयत्वेन वक्तुम् इच्छति वा?
भगिनी सम्यक् तया उक्तं, तत्र सामान्यरूपेण आत्यन्तिकदुःखनिवृत्ति यथा उक्तम्, आत्यन्तिकदुःखनिवृत्ति एव सर्वेषामपि शास्त्राणाम् उद्देश्यः, प्रयोजनं च. न्यायशास्त्रस्यापि तथैव वर्तते, तत्र मार्गभिन्नः यथा भवती उक्तवती, तावदेव इदानीं पर्याप्तं स्यात्.
हा, अस्तु, अस्तु महोदय, धन्यवादः. अस्तु, न्यायशास्त्राध्ययने अस्माकं ग्रन्थः पठ्यमानः अस्ति विद्याधरी इति. विद्याधरी इति ग्रन्थः तर्कसङ्ग्रहः इति ग्रन्थस्य व्याख्या अस्ति. तर्हि विद्याधरीग्रन्थे भागाः के के भवन्ति इति किञ्चित् स्थूलरीत्या वदामि. तर्कसङ्ग्रहः इत्यस्मिन् ग्रन्थे प्रथमतया न्यायशास्त्रे तु उद्देशः, लक्षणम् अपि च परीक्षा इति भागाः वर्तन्ते न्यायग्रन्थेषु. उद्देशभागे किं कुर्वन्ति इत्युक्ते, न्यायिकाः तत्र सर्वेषां पदार्थानां नाम्ना निर्देशनं कुर्वन्ति, अथवा नामकरणं कुर्वन्ति, संज्ञाकरणं कुर्वन्ति. इत्युक्ते इदं द्रव्यम्, अथवा इदं अयं गुणः, अथवा इदं कर्म, इदं सामान्यम् इति एवं रीत्या पदार्थानां नाम्ना निर्देशः यत्र भवति सः उद्देशभागः इति उच्यते ग्रन्थे. उद्देशभागानन्तरं तत्र लक्षणभागः भवति. लक्षणग्रन्थे तु परिभाषा दीयते पदार्थानां, नाम उद्देशग्रन्थे इदं द्रव्यम्, अयं गुणः, इदं कर्म, इदम् अयं कश्चन सम्बन्धः इत्यादिकं नाम्ना निर्देशः कृतः इति उक्तं. किन्तु लक्षणग्रन्थे तत्र परिभाषा दीयते, अस्तु इदं द्रव्यम् अस्ति चेत् केन कारणेन इदं द्रव्यं, किमर्थं द्रव्यम् इति उच्यते इति लक्षणभागे एतस्य चर्चा भवति. अनन्तरं परीक्षा इति भागः अपि भवति. परीक्षाभागे इतोपि गभीररीत्या एतस्य परिशीलनं भवति. अस्तु एकः पदार्थः द्रव्यम् इति अस्ति, द्रव्यम् इति द्रव्येषु गुणः अस्ति इति जानीमः, तर्हि गुणः द्रव्ये कुत्र भवति, द्रव्ये कुत्र सर्वत्र भवति वा अथवा एकदेशे भवति वा इत्यादीनां विचारः परीक्षा इत्यस्मिन् भागे क्रियते इति न्यायग्रन्थेषु विभागाः भवन्ति. किन्तु तर्कसङ्ग्रहग्रन्थे तु उद्देशभागः लक्षणम् इति भागः एव अस्ति. विद्याधरी इति ग्रन्थः तर्कसङ्ग्रहस्य व्याख्या, अस्मिन् ग्रन्थे अपि तथा एव स्यात् इति चिन्तयामि, खलु महोदय, द्रोणमहोदय? तथैव स्यात्. तर्हि आरम्भे उद्देशभागात् आरभामहे, तदनन्तरं लक्षणम् इति विभागः आयास्यति. अपि च तर्कसङ्ग्रहः इति ग्रन्थः बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः इति उक्तमस्ति. द्वितीयपुटे एकः श्लोकः अस्ति, श्लोके बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः इति. तर्हि बालाः इत्युक्ते के इत्यस्यां जिज्ञासायाम् अत्र उच्यते यत् बालाः इत्युक्ते लघुशिशवः न, अपि तु बालाः इत्युक्ते ग्रहणधारणपटुः बालः इति उच्यते. यस्य विषयस्य ग्रहणसामर्थ्यमस्ति अपि च विषयस्य धारणसामर्थ्यमस्ति तादृशः बालः, तादृशः अध्ययनरतः अस्ति बालः, तस्य कृते अयं ग्रन्थः रचितः इति उच्यते तर्कसङ्ग्रहे. तर्हि अस्तु, इतः अग्रे सर्तुं शक्नुमः. नूतनतया केन केन आगतम्?
अहं नीता अस्मि, नमस्कारः महोदय.
नीता भगिनी स्वागतम्. अनन्तरं
नागराज अस्मि, नमस्ते महोदय.
नागराज महोदय अस्तु. अनन्तरं कोऽपि अस्ति वा? अस्तु. तर्हि अधुना विद्याधरी पुस्तके तृतीयपुटे उपरितनभागे यदस्ति, रत्ना भगिनी पठति वा?
आं भगिनी, पठामि. द्रव्यगुणकर्मसामान्यविशेषसमवाय अभावाः सप्तपदार्थाः. द्रव्यं पुनः उक्तं, द्रव्यं गुणः कर्मसामान्यं विशेषः समवायः अभावः, इमे सप्तपदार्थाः. पठामि वा अग्रे भगिनि?
हा हा, अग्रे पठतु.
हा, तत्र पदार्थोद्देशे नामनिर्देशे आदौ द्रव्यं निर्दिष्टं, कुतः? यतः इतरे सर्वेपि द्रव्यमाश्रित्य तिष्ठन्ति.
अस्य विषये किञ्चित् भगिनि.
अस्तु, अत्र सप्त विश्वे सप्त सर्वपदार्थ ये पदार्थाः सन्ति सर्वे एते सप्तपदार्थेषु पदार्थश्रेण्याम् आगच्छन्ति. नाम अस्ति, तेषां नामानि द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः इति. अत्र किमर्थं द्रव्यम् इति प्रथमं लिखितम् अस्ति इति प्रश्ने सति, सर्वे अन्यपदार्थाः षट् पदार्थाः द्रव्यम् आश्रित्य तिष्ठन्ति इति कारणात् प्रथमं द्रव्यं लिखितमस्ति श्रेण्यां.
हा, समीचीनमस्ति. तर्हि यथा मया उक्तं, नैयायिकानां मार्गः अस्ति लोके अथवा विश्वे यावन्तः पदार्थाः सन्ति तेषां परिशीलनम् अपि च श्रेणीकरणं. तर्हि नैयायिकानां मतानुगुणं लोके यावन्तः पदार्थाः सन्ति ते एतासु श्रेणिषु आगच्छन्ति. द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति पदार्थाः भवन्ति विश्वे इति ते वदन्ति. अस्तु, तर्हि यथा भगिन्या उक्तम् अत्र आदौ द्रव्यस्य निरूपणं क्रियते. आरम्भे प्रथमतया द्रव्यम् इत्यस्मात् आरभ्य निरूपणं भवति अथवा द्रव्यम् इत्यस्मात् आरभ्य नामनिर्देशः भवति. किमर्थं द्रव्यम् इति प्रथमम् आगच्छति भगिनि?
किमर्थम् इत्युक्ते अन्ये सर्वे इत्युक्ते षड् पदार्थाः द्रव्यम् आश्रित्य तिष्ठन्ति इत्युक्ते सर्वे द्रव्ये वर्तन्ते
इति अस्ति. अस्तु, अग्रिमपरिच्छेदं कृपया.
अस्तु, तत्र अस्ति विशेषः. द्रव्ये गुणः तिष्ठति इति यदि उच्यते तर्हि द्रव्यम् अधः वर्तते, गुणः द्रव्यस्य उपरि वर्तते इति ज्ञायते. यथा यज्ञदत्तः आसने
तद् अग्रे पश्येम. तर्हि यद्वाक्यं पठितं भवति तस्य अर्थः.
अस्तु, इत्युक्ते द्रव्ये गुणः अस्ति इति वदामः चेत् अस्माकं यदि निर्देशनं कर्तुम् इच्छामः चेत् प्रथमम् अधः द्रव्यं लिखित्वा तस्मिन् उपरि अथवा तस्मिन् गुणस्य किं गुणः वर्तते इति दर्शयामः.
हा, समीचीनं. तर्हि द्रव्यम् इति अन्यतमः पदार्थः. पदार्थानां श्रेणीकरणं कृतं, श्रेण्यः सन्ति, तत्र द्रव्यम् इति एका श्रेणी इति चिन्तयन्तु. द्रव्यम् इति अन्यतमः पदार्थः. द्रव्यम् इत्युक्ते किं? द्रव्यम् इत्युक्ते तादृशपदार्थः यस्मिन् कश्चन गुणः वर्तते. अतः गुणम् आदाय यस्मिन् गुणः वर्तते तादृशपदार्थः द्रव्यम् इति उच्यते. द्रव्यम् इति संज्ञा तस्य पदार्थस्य भवति यस्मिन् गुणः अस्ति इति. अत्र किमपि चिन्तनम् अस्ति वा कस्यचित्?
भगिनी, तत्र केवलं किञ्चित् परिष्कारः. तत्र केवलं द्रव्यभिन्नषट् पदार्थाः द्रव्येन तिष्ठन्ति, द्रव्यम् अपि द्रव्ये तिष्ठति, सप्त पदार्थाः अपि द्रव्ये तिष्ठन्ति, केवलं तत्र किञ्चित्
परिष्कारः. आम् आम् आम्, सत्यं महोदय, धन्यवादः. हा, केवलं हा षड् पदार्थाः इति न, सर्वे पदार्थाः द्रव्यमाश्रित्य तिष्ठन्ति इति अस्ति. अस्तु, द्रव्यम् इत्युक्ते किम्? अपि च द्रव्ये प्रत्येकस्मिन् द्रव्ये के गुणाः भवन्ति इत्यस्य परिचयत्वेन प्रथमपुटं पश्यन्तु कृपया सर्वे. प्रथमपुटे एकं चित्रं दत्तमस्ति. तस्मिन् चित्रे प्रथमतया सप्तपदार्थाः सप्तसु विभागेषु सन्ति, द्रव्यगुणकर्मसामान्यविशेषः समवायः अभावः इति. पुनः द्रव्यम् इत्यस्मिन् पुनः नवविभागाः सन्ति, नवद्रव्याणि इति उच्यन्ते. तर्हि पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिग् आत्मा, मनः इति नवद्रव्याणि इति उच्यन्ते. प्रत्येकस्मिन् द्रव्ये कश्चन विलक्षणः गुणः अपि भवति. सः गुणः कः अत्र कः इति अत्र निर्दिष्टमस्ति. रविमहोदय पठितुम् इच्छति वा अथवा केवलं श्रवणम् इति? बालसुब्रह्मण्यमहोदय, अस्तु, बालसुब्रह्मण्यमहोदय तत्र चित्रं किञ्चित् परिशीलयति वा, कस्मिन् द्रव्ये कः गुणः वर्तते इति?
द्रव्यमस्ति, द्रव्ये गुणः अस्ति प्रदर्शितः तत्र. द्रव्ये पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिक् आत्मा, मनः इत्यादि नववस्तूनि सन्ति.
नवद्रव्याणि
सन्ति. प्रत्येकद्रव्ये पृथिवी गन्धः इति गुणः अस्ति, जले शैत्यम् इति गुणः, तेजः इति औष्ण्यं, वायवे स्पर्शः, आकाशे शब्दः, काले संख्या, दिक् इति संख्या, आत्मा तत्र ज्ञानं, मनः संख्या इत्यादि गुणानि प्रत्येकद्रव्ये सन्ति.
हा, समीचीनमस्ति. तर्हि द्रव्यम् इति तादृशपदार्थः यस्मिन् गुणः वर्तते इति उक्तं खलु. अपि च नवद्रव्याणि सन्ति इति अत्र प्रदर्शितं. नवद्रव्याणि कानि?
नवद्रव्याणि इति पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः इति.
हा, इति नवद्रव्याणि. तर्हि द्रव्यश्रेण्यां यावन्ति वस्तूनि आगच्छन्ति तेषु एषु भवति पार्थिवद्रव्यं वा जलीयद्रव्यं वा द्रव्यं वा तैजसद्रव्यं वायुवीयद्रव्यम् इति भवति. अपि च विलक्षणगुणः अपि वर्तते प्रत्येकस्मिन् द्रव्ये, यथा पृथिव्यां गन्धः, जले शैत्यं, तेजसि औष्ण्यं, वायौ स्पर्शः इति गुणः, आकाशे शब्दः, कालः, दिग्, आत्मा, मनः एतेषु न कालः दिग् मनः एतेषु संख्या इति वर्तते, आत्मनि ज्ञानम् इति गुणः वर्तते इति द्रव्यनिर्देशः अस्मात् प्राप्यते. अस्तु, अत्र
एकः प्रश्नः भगिनि. यद्यपि अत्र सर्वे आत्मा पृथक् द्रव्यम्, अन्य सर्वे प्राकृत द्रव्याणि सन्ति, तर्हि अपि अत्र आत्मा इति मध्ये किमर्थं लिखितवन्तः तैः?
मध्ये किमर्थम् इति चेत् महोदय प्रश्नः
मध्ये दिग् तथा दिक् च मनश्च मध्ये आत्मा इति लिखितं, तस्य किमपि वैशिष्ट्यम् अस्ति वा अत्र? स्थानं स्थानस्य वैशिष्ट्यम् अस्ति वा इति मम
प्रश्नः. अस्तु अस्तु, तर्हि हा, द्रव्य सप्तपदार्थानां निर्देशसमये द्रव्यम् इत्यस्मात् आरभ्य निर्देशः सञ्जातः, तत्र तु कारणमस्ति यतोहि द्रव्यमाश्रित्य अन्ये पदार्थाः तिष्ठन्ति इति. किन्तु द्रव्याणाम् एवं क्रमः किमर्थं स्यात् इति भवतः प्रश्नः खलु?
सर्वाणां द्रव्याणां तु न, किन्तु अत्र क्रमः अस्ति पृथ्वी, जलं, तेजवायु, आकाश, एतस्य प्रकृत्या भवन् यत् आगच्छन्ति तस्य क्रमः अस्ति, तद् क्रमानुसारमेव अत्र अत्रापि दृश्यते. किन्तु कालः तु नित्यं सर्वत्र सर्वदा भवति. दिग् इति
दिग् इत्युक्ते
मनः इति शरीरे एव अस्ति, अन्यस्थानेषु न सन्ति. आत्मा इति तस्य विषयः भिन्न, प्राकृतवस्तु न.
अस्तु, द्रोणमहोदय तस्य विषये किमपि वक्तव्यं वा?
तत्र प्रश्नः समीचीनः, तत्र न जानीमः किमर्थं, परन्तु तत्र नित्यत्वम् अनित्यत्वम् इति विषयः न. कुतः इति चेत् तत्र नैयायिकानां चिन्तनं भिन्नम्, अन्येषां चिन्तनं मन्दं. पृथिवीपरमाणु अपि नित्य भवति, जलस्य अपि परमाणु नित्य, तेजः अपि, वायोः अपि, तत्र सर्वत्रापि नित्यत्वम् अस्ति एव. तत्र कार्यपृथिवी अस्ति चेत् नित्यत्वं न भवति. तर्हि नित्य अनित्य इति कृत्वा तु एवं चिन्तनं नैयायिकानां न भवति.
अहमपि तद् स्वीकरोमि. सर्वाणि द्रव्याणि नित्यमेव, किन्तु अन्यानि द्रव्याणि द्रव्याणां तु अभावः भवन्ति.
न न जगन्नाथ जगन्नाथमहोदय, तर्हि द्रोणमहोदयेन किम् उक्तम् इति चेत् अत्र पृथिवी जलं तेजः वायुः इत्यावत् पर्यन्तम् अनित्यानि अस्तु, तेषां नाशः भवति जन्म अपि भवति इति अनित्यद्रव्याणि. आकाशः कालः दिग् आत्मा मनः नित्यद्रव्याणि इति.
ओ अस्तु,
हा तावत्पर्यन्तं वक्तुं शक्नुमः, परन्तु किमर्थम् आत्मा तत्र मध्ये अस्ति इत्यस्य उत्तरं नास्ति अधुना इति एव. अस्तु अस्तु, तर्हि इतः अग्रे सर्तुं शक्नुमः. तर्हि बालसुब्रह्मण्यमहोदय अग्रे पठति वा, रत्ना भगिन्या यत्र स्थगितं तस्मात् आरभ्य, तत्र अस्ति विशेषः.
तत्र अस्ति विशेषः, द्रव्ये गुणः तिष्ठति इति यदि उच्यते तर्हि द्रव्यम् अधः वर्तते, गुणः द्रव्यस्य उपरि वर्तते इति ज्ञायते. यथा यज्ञदत्तः आसने वर्तते इत्युक्तौ यज्ञदत्तः उपरि आसनम् अधः भवति इति ज्ञायते. तत्र आसनं यज्ञदत्तस्य भारं वहति. पठामि?
हा हा न महोदय, सारांशत्वेन वदति वा परिच्छेदे किम् अवगतम्?
विशेषः किम् इत्युक्ते गुणः द्रव्ये तिष्ठति यदा एवं वदति तर्हि द्रव्यम् अधः अस्ति तदुपरि तस्य उपरि गुणः वर्तते इति दृष्टम् इति ज्ञायते. उदाहरणरूपेण यथा यज्ञदत्तः आसने वर्तते इति उक्तः चेत् यज्ञदत्तः उपरि अस्ति, आसनम् अधः भवति. आसने यज्ञदत्तः आसनस्य उपरि अथवा आसने यज्ञदत्तः वर्तते. इत्युक्ते आसनं यज्ञदत्तस्य भारं वहति.
हा हा समीचीनं महोदय, हा सम्यक्. तर्हि द्रव्यगुणः अनयोः अपि एतादृशी एव स्थितिः, द्रव्यम् अधः वर्तते यथा आसनं, तस्मिन् गुणः अस्ति यथा यज्ञदत्तः आसने अस्ति तद्वत् गुणः अस्ति द्रव्ये इति कृत्वा गुणः गुणस्यापि तादृशी एव स्वभावः भवति, अहं भारं वहामि इति. गुणः यदि प्राणी स्यात् अथवा जीवितवस्तु स्यात् तर्हि गुणस्य चिन्तनं भवति, क्षम्यतां, द्रव्यस्य चिन्तनं भवति अहं भारं वहामि, गुणस्य चिन्तनं भवति अहं भारं स्थापयामि इति. तादृशेव परिस्थितिः, एकमस्ति अधिकरणं द्रव्यम्, अपरः अस्ति आधेयः गुणः इति अग्रे आगच्छति. अस्तु अग्रे सभ्यसाची महोदय.
तत्र आधाराधेयभाव भगिनि तथा
सत्यम्
आधार आधेयभाव व्यवस्थापनम् अत्र इदं कल्पयामः, आसनं प्राणी इति, तर्हि तत् आसनम् इदं चिन्तयेत्, अहं यज्ञदत्तस्य भारं वहामि, इयं भारवहनस्य चिन्ता एव अधिकरणता आधारता इति वा उच्यते. तर्हि वयम् उदाहरणं तत्र दृष्टवन्तः, यज्ञदत्तः एकः अस्ति, सः आसने उपविशति, तर्हि आसनं भारं वहति, एवम् आसनस्य उपरि यज्ञदत्तः अस्ति, तर्हि आसनं इदानीम् अत्र वदति कल्पनाम् इति कुर्मः चेत् आसनम् इति चिन्तयामः तर्हि यज्ञदत्तस्य भारं वहति आसनं, तर्हि आसनम् अधः अस्ति एवं तस्य उपरि यज्ञदत्तः अस्ति, तर्हि यत् अधः अस्ति तत् भवति अधिकरणता, एवं यत् तस्य उपरि अस्ति तत्र आधेयता अथवा आधारता इति उच्यते इति अत्र दत्तमस्ति.
हा समीचीनं. तर्हि अधिकरणम् इति यदस्ति आसनं, तस्मिन् अधिकरणता अस्ति. यज्ञदत्तः कः अस्ति अत्र?
आधारता इति अस्ति.
यज्ञदत्तः आधेयः खलु?
आधेयः.
हा आसनम्, आसनम् इति अधिकरणम् अथवा आधारः. आसने आधारता, यज्ञदत्तः आधेयः, यज्ञदत्ते आधेयता इति धर्मः वर्तते. अस्तु अग्रे महोदय. एकनिमिषः, प्रश्नः अस्ति वा?
आम् आम्, अधिकरण शब्दस्य निरूपणं कर्तुं शक्नोति वा? करण शब्दां जानामि, अधि उपसर्ग युक्त्वा युक्त्वा चेत् किं कः अर्थः भवति?
आधारः इति अर्थः महोदय, तावदेव. आधारः इत्युक्ते यः कोऽपि भारं वहति, यतः आसन्दे अहम् उपविशामि चेत् मम आसन्दः अस्ति आधारः, मम भारं वहति. अधिकरणम् इत्युक्ते आधारः. अपि च आधारे अथवा अधिकरणे अधिकरणता अथवा आधारता इति धर्मः अस्ति. अस्तु,
धन्यवादः.
अस्तु, अग्रे आधेयतायाः विषये सव्यसाची महोदय पठिष्यति. महोदय.
यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि इति. इयं चिन्ता एव यज्ञदत्ते विद्यमाना आधेयता इति उच्यते. यज्ञदत्तं विहाय कश्चित् अचेतनः वक्षमाणः सङ्ख्यारूपगुणः उपरि भवति चेत् अपि सः गुणोऽहं भारं स्थापयामि इति चिन्तयति आलोचयामः. अतः तादृशे पदार्थे आधेयता भवति, तथा आसने अधिकरणता वर्तते. अस्तु, तर्हि उपरि वयं दृष्टवन्तः यः पदार्थः भारं वहति तस्य नाममस्ति अधिकरणता, एवं तत्र आधारता.
एकनिमिष, एकनिमिष. यः पदार्थः भारं वहति तस्य नामकरणं किम्?
अधिकरणता इति अस्ति.
न न, तस्य नाम अधिकरणम्.
अधिकरणम्. अस्तु अस्तु, समीचीनं.
तस्मिन्, चिन्ता नास्ति, तस्मिन् अधिकरणता तद्वत्.
हा तस्मिन्, आमां, तस्मिन् अधिकरणता अस्ति. यः भारं वहति तत्र अधिकरणम् इति अस्ति. तस्मिन् अधिकरणता अस्ति अथवा आधारता अपि वक्तुं शक्नुमः खलु, अधिकरणता अथवा आधारता. अस्तु, इदानीं यज्ञदत्तः चिन्तयति किम्, अहं भारं स्थापयामि, कुत्र? आसन्दे इति चिन्ता भवति यज्ञदत्ते. तर्हि यज्ञदत्ते इति किम् अस्ति इति चिन्तयामः चेत् तत्र आधेयता इति अस्ति यज्ञदत्ते इति वदामः. यदि इदानीं यज्ञदत्तविहाय अन्य किञ्चित् अपि भवति, अन्य कोऽपि चिन्तयति, यथा यथा कोऽपि अस्ति अत्र उदाहरणमस्ति सङ्ख्यारूप इति अन्य एकः गुणः अस्ति, तत् चिन्तयति इदानीम् अहमपि भारं स्थापयामि आसन्दे, तर्हि तत्रापि आधेयता इति सङ्ख्यायाम् इति आधेयता इति वक्तुं शक्नुमः. एवं तत्र आसन्दे अधिकरणम् अस्ति, तर्हि तस्मिन् अधिकरणता इति वदामः. तर्हि यत् भारं स्थापयति तत्र आधेयता अस्ति, यत् भारं वहति तत्र तस्मिन् अधिकरणता इति वदामः. तर्हि आधेयता उपरि एवम् अधिकरणता इति अधः इति वक्तुं शक्नुमः.
हा समीचीनं महोदय. इदानीं गुणः द्रव्यम् अनयोः विषये किञ्चित् वदतु, तत्र आधारः अथवा अधिकरणं किम्, आधेयः कः?
हा हा, गुणः एवं द्रव्यम् इति अस्ति चेत् तत् तर्हि द्रव्ये इति अधिकरणता अस्ति, गुणमस्ति, तत्र आधेयता इति अस्ति इति वदामः. किमर्थम् इत्युक्ते गुणः द्रव्ये अस्ति इति.
हा बहु सम्यक् अस्ति. तर्हि गुणः आधेयः यथा यज्ञदत्तः, अपि च गुणः कुत्र अस्ति?
उपरि अस्ति, द्रव्ये अस्ति इदानीं.
हा द्रव्ये अस्ति गुणः इति कृत्वा द्रव्यं गुणस्य अधिकरणम् अस्ति, द्रव्ये अधिकरणता अस्ति इति. तर्हि
एकः प्रश्नः अस्ति मम, अहं नागराजः. अधिकरणे आसन्दे गुणः अस्ति, गुणः यज्ञदत्तः वा अधिकरणता वा अधिकरणता अथवा आधारता वा, गुणः किं गुणः यज्ञदत्तः वा अधिकरणता वा?
एकनिमिष, गुणः यज्ञदत्तः. अस्तु, अस्माकम् उदाहरणमस्ति आसनम्, आसनस्य उपरि यज्ञदत्तः इति अस्ति खलु.
परन्तु आसन्दे अपि अधिकरणता गुणत्वमस्ति, यज्ञदत्ते आधेयता गुणत्वमस्ति खलु.
हा समी, भवान् यद्वदति आधे द्रोणमहोदय,
किञ्चित् तत्र अत्र उदाहरणे उदाहरणद्वयम् अस्ति, एकमेव उदाहरणम् इति न चिन्तनीयम्. उदाहरणद्वयं, प्रथमम् उदाहरणम् अस्ति यज्ञदत्त आसन्दे अस्ति, तत्र भिन्नम् उदाहरणम् इदानीं यज्ञदत्तं विहाय कश्चित् अचेतन वक्ष्यमाणः सङ्ख्यारूपगुण उपरि भवति चेत् इति भिन्नम् उदाहरणम्. अत्र कोऽपि तत्र आसन्दः अस्ति इदानीम् आसन्दे यज्ञदत्त नास्ति, परन्तु आसन्दे एकत्वसङ्ख्या अस्ति इति चिन्तयामः चेत् तत्र गुणः किं चिन्तयति, अत्र एकत्वं किं चिन्तयति इति, अहं गुणोऽहं भारं स्थामयति, भिन्नम् उदाहरणम्.
अस्तु महोदय, इदानीम् अवगतं, धन्यवादः.
अस्तु, धन्यवादः महोदय. स्पष्टं वा नागराज महोदय?
स्पष्टं भगिनि.
अस्तु, अग्रे सरेम तर्हि. सभ्य सरि, वेङ्कटेश महोदय अग्रे पठति वा?
अत्र प्रकृतेपि ततः आरभ्य किल.
सत्यं,
प्रकृतेपि द्रव्यम् अधः अस्ति, गुणश्च उपरि अस्ति इति उक्तौ द्रव्ये अधिकरणता, गुणे च आधेयता अस्ति इति आयातम्. अतः पूर्वोक्तं यथा उक्तं तत्र उदाहरणे यज्ञदत्तः उपरि अस्ति, आसनम् अधः अस्ति, तथा एव तत्र समानरूपेण वयं चिन्तनं कुर्मः चेत् तत्र गुणः द्रव्ये अस्ति, अतः गुणः उपरि अस्ति, द्रव्यं अधः अस्ति, तर्हि द्रव्यम् आसनस्य समानम्, अतः द्रव्ये अधिकरणता अस्ति, यतः द्रव्यम् अधिकरणम् अस्ति तस्मिन् अधिकरणता वर्तते, तथा एव गुणः यज्ञदत्तः इव, गुणे आदेयता, गुणः आदेयः, अतः गुणे आदेयता अस्ति इति आयातं तत्र तस्मिन् वाक्यस्य अर्थः. अग्रे पठामि वा तर्हि?
स्पष्टं स्यात् महोदय, अग्रे.
आसने अधिकरणता वर्तते इति अमुं विषयं लघुना उपायेन कथं निरूपयामः? तत्र निष्ठ इति वर्ति इति पदद्वयम् उपकरोति, अतः आसननिष्ठा अधिकरणता, आसनवर्तिनी अधिकरणता इति वाक्यद्वयं जातं. तद्वदेव यज्ञदत्तनिष्ठ आदेयता, यज्ञदत्तवर्ति आदेयता इति च वाक्यद्वयम्. तर्हि तत्र निरूपणं कथं वयं कुर्मः इति प्रश्नः उदेति. तदर्थं वयं तत्र पदद्वयस्य उपयोगं कुर्मः, निष्ठवर्ति इति शब्द पदद्वयोः. तत्र तर्हि तत्र अधिकरणता आसने अस्ति इति कारणात् तत्र अधिकरणता, तादृश अधिकरणता इत्युक्ते आसननिष्ठा अधिकरणता इति वयं वक्तुं शक्नुमः, उत आसनवर्तिनी अधिकरणता इति. तत्र तस्य अधिकरणतायाः तत्र विशेषः तत्र वक्तुं निरूपणं तत्र वक्तुं शक्नुमः, निष्ठ उत वर्ति इति पदस्य उपयोगेन. तद्वदेव तत्र आदेयता यज्ञदत्ते अस्ति इति कारणात् यज्ञदत्तनिष्ठ आदेयता उत यज्ञदत्तवर्ति आदेयता इति च वक्तुं शक्नुमः निरूपणसमये. तदेव तत्र तस्मिन् पदच्छेदे अस्ति. अग्रे इतोपि पठामि वा?
समीचीनं महोदय. तर्हि अधुना किञ्चित् गुणः द्रव्यम् इत्यनयोः विषये अपि वदतु, निष्ठावर्तिनि इति.
तर्हि तत्र इदानीं समानरूपेण वयं चिन्तयामः चेत् तत्र गुणः उपरि अस्ति, तर्हि गुणः यज्ञदत्तः इव इति कारणात् तत्र गुणे आधेयता अस्ति, तर्हि तत्र आधेयनिष्ठ गुणनिष्ठ आदेयता अथवा तत्र द्रव्यनिष्ठ अधिकरणता इति तत्र वक्तुं शक्नुमः. या अधिकरणता द्रव्ये अस्ति तत्तु द्रव्यनिष्ठा अधिकरणता, या आदेयता गुणे अस्ति तत्तु गुणनिष्ठ आदेयत वा गुणवर्ति आदेयत इति वक्तुं शक्नुमः तत्र.
समीचीनं महोदय. तर्हि व्यस्तप्रयोगे वर्तिनी इति अस्ति, यतोहि अधिकरणता आधेयत स्त्रीलिङ्गे इति तावदेव.
सत्यं सत्यम् आमां सत्यं.
हा सम्यक् अस्ति. तर्हि लौकिकरीत्या वयं वदामः आसने यज्ञदत्तः अस्ति, शास्त्रीयरीत्या एवम् अस्ति आसननिष्ठ अधिकरणता अथवा आसनवर्तिनी अधिकरणता. तद्वत् द्रव्यनिष्ठ अधिकरणता, द्रव्यवर्ति अधिकरणता अथवा गुणनिष्ठ आधेयत, गुणवर्ति आधेयत इति वदामः शास्त्रीयरीत्या. अत्र हा एवमेव अस्ति, उभयोः आधाराधेयतभावः एवं निरूपितः अस्ति इति. अस्तु, इतः अग्रे ससम्बन्धिकपदार्थाः इत्यस्य वर्णनं अस्ति. साकाङ्क्षाः अथवा ससम्बन्धिकः पदार्थाः इत्युक्ते के इत्यस्य विवरणार्थम् अत्र एकं चित्रं दत्तमस्ति. रामः अस्ति, रामः कस्यचित् पुत्रः, दशरथस्य पुत्रः रामः. तर्हि रामे पुत्रत्वम् अस्ति इति वदामः. अधुना रामः पुत्रः अस्ति अथवा रामे पुत्रत्वम् अस्ति इत्यस्य वदनेन श्रोतुः मनसि इतोपि केचन प्रश्नाः उद्भवन्ति. रामः अस्तु, रामे पुत्रत्वम् अस्ति चेत्, रामः पुत्रः अस्ति चेत् रामः कस्य पुत्रः अथवा रामे विद्यमानं पुत्रत्वं केन निरूपितं भवति इत्यादयः प्रश्नाः श्रोतुः मनसि उद्भवन्ति. श्रोतुः जिज्ञासायाः परिपूर्णार्थम् इतोपि किञ्चित् तत्र वक्तव्यं भवति. इत्युक्ते रामः दशरथस्य पुत्रः, रामे विद्यमानपुत्रत्वं दशरथे विद्यमानपितृत्वेन निरूपितं भवति इत्यादिकं वक्तव्यं भवति किल. अतः पुत्रत्वम् अपि च पितृत्वं ससम्बन्धिकौ शब्दौ इति वदामः अथवा ससम्बन्धिकौ पदार्थौ इति. साकाङ्क्षापद्धत्या यस्य श्रवणेन इतोपि ज्ञातुम् आकाङ्क्षा उदेति तादृशपदार्थाः साकाङ्क्षाः अथवा ससम्बन्धिकाः पदार्थाः इति उच्यन्ते. तद्वदेव आधेयता अपि च अधिकरणता. एवमेव अधिकरणता अस्ति अथवा आसननिष्ठ अधिकरणता इति वदामश्चेत् तत्र पुनः जिज्ञासा उदेति. अस्तु, अधिकरणता अस्ति चेत् अधिकरणतां कल्पयितुं कश्चन आदेयः स्यात् इति जिज्ञासा उदेति. तदा वक्तव्यं भवति यज्ञदत्तः आधेयः अस्ति, यः अधिकरणे अथवा आसने उपविष्टः अस्ति. तर्हि यज्ञदत्ते विद्यमान आधेयतया आसननिष्ठ अधिकरणता निरूपिता भवति इति कृत्वा आधेयता अधिकरणता इति ससम्बन्धिकशब्दाः इति अग्रिमपरिच्छेदद्वये विवृतमस्ति. एकः पदार्थः अन्यं पदार्थं सर्वदा अपेक्षते चेत् तर्हि तत्र ससम्बन्धिकपदार्थाः इति उच्यन्ते. अत्र कोऽपि प्रश्नः वा? अस्तु, तर्हि अग्रे सरेम. नूतनाः यदि प्रश्नाः सन्ति चेत् अथवा किमपि न अवगच्छन्ति चेत् कृपया वदन्तु. तर्हि वेङ्कटेशमहोदय, भवान् एव, चित्रद्वयम् अस्ति खलु, किञ्चित् निरूपयति वा चित्रे किम् अस्ति इति, अग्रिमपुटे, पञ्चमे पुटे.
तर्हि तत्र चित्रे अस्ति यज्ञदत्तः अस्ति, यज्ञदत्तः आदेयः यस्मिन् आदेयता वर्तते. तर्हि तत्र पूर्वस्मिन् तत्र निष्ठप्रयोगे निष्ठशब्दः वयम् उपयोगं तत्र कृतवन्तः. तत्र न्यायशास्त्रे एतादृशं भवति, यस्मिन् आदेयता वर्तते तत्र आदेयता यज्ञदत्तनिष्ठ आदेयता इति तत्र चित्रे तत्र तद् कथं वयं पठामः चेत् तत्र यज्ञदत्तनिष्ठ आदेयता, यज्ञदत्तः आदेयः यस्मिन् आदेयता वर्तते, तथा एव आसनम् अधिकरणम् अस्ति, आसने अधिकरणता वर्तते इति तत्र आसननिष्ठ अधिकरणता. तत्र इदानीं केवलं तत्र यथा भगिन्या उक्तं तत्र साकाङ्क्षशब्दः इत्युक्ते तत्र केवलम् आदेयता अधिकरणात् इति वदनेन अधिकरणता का इति अपि वक्तव्या भवति. केवलं रामः पुत्रः इति वदनेन तत्र जिज्ञासा भवति कस्य पुत्रः रामः इति. तादृशात् केवलम् आदेयता इति वदनेन तस्य अधिकरणता इति सम्बन्धिकशब्दाः. तदेव तत्र साकाङ्क्षः इति तत्र वदामः. यतः यं यस्य शब्दस्य वदनेन तत्र तत्र निरूपकः तत्र अन्यशब्दस्य वदनस्य आवश्यकमपि तत्र भवति. तर्हि तत्र इदानीं यम् अपेक्षते तत्र साकाङ्क्षपदार्थस्य तस्य सः निरूपकः इति उच्यते. उदाहरणं तत्र इदानीम् आदेयता अधिकरणतायाः निरूपकः आदेयता, तथा एव विपरीत्या आदेयतायाः निरूपकः अधिकरणता इति तत्र वक्तुं शक्नुमः. यतः ते तौ द्वौ साकाङ्क्षशब्दा शब्दौ इति कारणात् अतः तत्र इति अस्ति तत्र चित्रे. इतोपि तत्र निरूपकस्य वदनं वक्तव्यं चेत् तत्र इतोपि पठित्वा वदामि वा इदानीं?
धन्यवादः महोदय. इतः अग्रे सर्तुं शक्नुमः. तर्हि वेङ्कटेशमहोदयेन यदुक्तं तत्तु स्थूलरीत्या निरूप्यनिरूपकभावस्य विषयः आसीत्. तर्हि अग्रे गत्वा पश्येम किमस्ति तत्र इति. सरला भगिनी पठितुमिच्छति वा? अस्तु, नो चेत् विद्याशङ्करमहोदय.
आं भगिनि, निरूप्यनिरूपकभावव्यवस्थापनं तत्र लोके निरूपकः इत्यनेन यः वदति सः बोध्यते. यस्य विषये उच्यते सः निरूप्यः. तत्र साम्प्रदायिकम् उदाहरणं यथा व्यासः कृष्णकथां निरूपयति. विषयः अस्ति निरूपकः. अस्य विषयस्य व्यवस्थापनं भवति लोके निरूपकः यः वदति सः बोध्यते.
यः वदति सः इति निरूपकः. यः निरूपयति सः निरूपकः इति.
यथा उदाहरणं दत्तं कृष्णकथा इति अस्ति. कृष्णकथा व्यासेन लिखितं, व्यासेन किं व्यासेन निरूपितं. तदा व्यासः निरूपकः, व्यासे निरूपकता अस्ति. कृष्णकथा व्यासेन लिखितं, तस्मात् कृष्णकथा निरूप्य कृष्णकथायां निरूप्यता अस्ति इति. निरूपकता तस्मात् निरूप्यता आगच्छति इति तद् बाणः अस्ति.
हा हा, समीचीनं महोदय. तर्हि एतावत् पर्यन्तं वयं दृष्टवन्तः यत् यत्र साकाङ्क्ष शब्दाः अथवा ससम्बन्धिकशब्दाः भवन्ति तत्र एकः अपरं निरूपयति, एकः पदार्थः अपरं निरूपयति इति कृत्वा तत्र निरूप्यनिरूपकभावः अवश्यं वर्तते. तदर्थम् इतोपि एकम् उदाहरणं दत्वा तस्य किम् इतोपि परिशीलनं दत्तमस्ति. अग्रे महोदय.
भगिनि, अत्र कर्मणि प्रयोगे मम किमपि संशयः जातः. वदति सः, यः वदति सः बोध्यते इति. अत्र निरूपकः एव वदति, सः एव बोधति, तर्हि सः बोध्यते.
हा, निरूपकः इत्यनेन शब्देन यः वदति सः इति अस्माभिः बोध्यते इति स्यात्.
ओ अस्तु अस्तु अस्तु,
खलु द्रोणमहोदय? अस्तु, इति अस्ति महोदय. निरूपकः इत्युक्ते वस्तुतः यः निरूपयति यथा व्यासः, निरूप्यः इत्युक्ते कृष्णकथा या व्यासेन निरूप्या भवति इति. अस्तु, अग्रे विद्याशङ्कर महोदय.
तथा एव अत्रापि पूर्ववत् निष्ठपदप्रयोगेन व्यासनिष्ठनिरूपकता निरूप्यता तु कृष्णकथानिष्ठा इति निरूपणं भवति. यथा पूर्वं निष्ठशब्दः वर्ति शब्दः इति उपयोगेन यथा वदामः, तत्र चित्रं दृष्ट्वा व्यासः निरूपकः, तस्मात् व्यासनिष्ठनिरूपकता अस्ति. तथैव कृष्णकथानिरूप्य तस्मात् कृष्णकथानिष्ठा निरूप्यता अस्ति इति वक्तुं शक्नुमः. तथा निरूपणं शब्दः तत्र अस्ति, तत्र निरूपणम् इत्युक्ते वक्तुं शक्नुमः.
हा, समीचीनमस्ति. एतत्तु सुलभमेव स्यात्. अग्रे महोदय.
अस्मिन् उदाहरणे व्यासः एव निरूपकः, कृष्णकथा च निरूप्या एव. परन्तु आधारता आधेयता च इत्यनयोः परस्परं निरूपकता निरूप्यता च भवति. आधेयता केन निरूपिता इति प्रश्न इव अधिकरणता केन निरूपिता इति प्रश्नः अपि खलु तुल्यः. अतः उभयोः परस्परं निरूप्य निरूपकभावः भवति. पुनः विषयः अस्ति, व्यासः निरूपकः, कृष्णकथा निरूप्य, तस्मात् आधारता आधेयता इति तस्य विषयस्य अपि प्रयोगं कर्तुं शक्नुमः. आधेयता व्यासनिष्ठनिरूपकता अस्ति, कृष्णकथानिष्ठनिरूप्यता अस्ति. आधेयता केन निरूपिता इति पृच्छामः चेत् तथा एव अधिकरणता केन निरूपिता इति प्रश्नः अपि समानप्रश्नः इति अस्ति. तस्मात् तयोः निरूपकता निरूपिता मध्ये परस्परं सम्बन्धः अस्ति, आधारादेयता इव सम्बन्धः.
हा, समीचीनं. किन्तु व्यासकृष्णकथा इत्यस्मिन् स्थले एकस्यां दिशि एव गच्छति निरूपकनिरूप्यभावः, यतोहि व्यासः एव कृष्णकथां निरूपयितुं शक्नोति. यदि कृष्णकथा न स्यात् तथापि व्यासः भविष्यति एव खलु. व्यासः एव निरूपकः, कृष्णकथा एव निरूप्य. परन्तु आधारता अधेयता इत्यस्य विषये तथा नास्ति. आधारता आधेयतां निरूपयितुं शक्नोति, आधेयता आधारतां निरूपयितुं शक्नोति इति वार्ता अस्ति. अपि च एतदपि वक्तव्यं यत् आधारता अधिकरणता इति समानार्थकपदे स्तः इति. तर्हि स्पष्टं स्यात् एतावत्पर्यन्तम्. अग्रे सरेम वा? जगन्नाथमहोदय, नागराजमहोदय, रविमहोदय. अस्तु, अग्रे. चित्रमस्ति, विद्याशङ्करमहोदय किञ्चित् चित्रं निरूपयति वा?
आम्, चित्र अस्ति. पुनः अधिकरणता आधेयता निष्ठ तस्य विषयस्य निरूपिता निरूपक पदस्य दर्शितम् अस्ति. वामभागे आसनम् अस्ति, आसननिष्ठ अधिकरणता अस्ति. आसनः अधिकरणम्, आसनम् अधिकरणं, तस्मात् आसने अधिकरणता अस्ति. दक्षिणभागे यज्ञदत्तः अस्ति, सः आसने अस्ति, सः आधेयः. यज्ञदत्ते आधेयता अस्ति, यज्ञदत्तनिष्ठ आधेयता अस्ति. यथा भगिनी उक्तवती, अधिकरणता आधेयता तयोः मध्ये निरूपिता निरूपिका विषयः दिशिद्वयं गच्छति. आधेयता परस्परं गच्छति. अधिकरणता आधेयता निरूपयति, तथा एव आधेयता अधिकरणता निरूपयति.
सत्यं, किन्तु वाक्यरीत्या कथं वदामः? अस्तु, अग्रिमपरिच्छेदं पठतु, तदनन्तरं चित्रस्य विवरणं करोतु.
इह यज्ञदत्तः आधेयतावान् इति वक्तुम् आश्रयः इति पदम् उपकरोति. तथा च आसननिष्ठ अधिकरणतानिरूपित आधेयता आश्रयः यज्ञदत्तः इति. यज्ञदत्तनिष्ठ आधेयतानिरूपित अधिकरणता आश्रयः आसनम् इति उभयं साधु. एवञ्च निरूप्य निरूपकसम्बन्धः ज्ञातः चेत् आधार आधेयसम्बन्धः अपि ज्ञायते. तथा च प्रकृते अपि द्रव्ये गुणः तिष्ठति इत्यत्र आधार आधेयभावः सुज्ञेयः. चित्रे यत् अस्ति तत् वाक्यरीत्या अपि वक्तुं शक्नुमः. यज्ञदत्तनिष्ठ उपरि चित्रे आसननिष्ठ अधिकरणता अस्ति, आसननिष्ठ अधिकरणतानिरूपित आदेत आश्रयः यज्ञदत्तः इति एकः विषयः अस्ति. विपरीतरीति गच्छामः चेत् यज्ञदत्तनिष्ठ अधेयतानिरूपित अधिकरणता आश्रयः आसनम् इति आसनस्य विवरणं वक्तुं शक्नुमः. अत्र उभयमपि उभयदिशि गच्छति बाणः.
हा सत्यं, शरः उभयदिशि गच्छति. अपि च ऊर्ध्वगामिनी शरे नाम यः एरो अथवा शरः उपरि गच्छति तस्मिन् निष्ठा इति स्थापयामः इति सामान्यप्रतीतिः अस्ति. न्यायशास्त्रे अग्रे गत्वा अपि बहुत्र एतस्य उपयोगः भवति, तर्हि एतस्य अवगमनं बहु मुख्यम् अस्ति. उपरि गमनार्थं निष्ठ, अधोगमनार्थम् अधोगमनार्थम् इत्युक्ते किम्? अधः किमपि अस्ति तस्मिन् इतोपि कश्चन पदार्थः अस्ति इत्यस्य सूचनार्थं वान् अथवा आश्रयः इति. वान् इति मतुप्रत्ययः अस्मिन् अस्ति इति खलु, तस्मिन्नेव अर्थे आश्रयः इति पदः अपि पदमपि युज्यते. अतः आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रयः यज्ञदत्तः इति यज्ञदत्तस्य निरूपणं भवति, अथवा आधेयतावान् यज्ञदत्तः इति, अथवा यज्ञदत्तनिष्ठ आधेयतानिरूपित अधिकरणतावत् आसनं. वत् इति यतोहि नपुंसकलिङ्गपदम् आसनम्, अधिकरणतावत् आसनम् अथवा अधिकरणताश्रयः आसनम् इति. जगन्नाथमहोदय,
निष्ठ इति शब्दस्य अर्थ निष्ठा इति शब्दस्य अर्थ अहम् अवगच्छामि. अत्र निष्ठ इति अस्मिन् सन्दर्भे विशेषणं वा, तस्य अर्थः किं?
निष्ठ इत्युक्ते विद्यमानः इति. निष्ठा, हा निष्ठा इति विशेष्य निघ्नशब्दः अस्ति. तर्हि तदर्थं पूर्वस्मिन् पुटे भवता दृष्टम् इति चिन्तयामि, आसननिष्ठा इति स्त्रीलिङ्गे आसीत् खलु. समासे कः वदति?
रवि.
हा रवि महोदय, किं
युक्त इति अर्थे?
युक्त, हा सत्यं. वित् इति वदति वा?
निष्ठ,
हा निष्ठ, सत्यं. युक्तः इत्यस्मिन् अर्थे विशेषनिघ्नः. समासे जाते तत्र सर्वं गच्छति खलु, विभक्ति लिङ्गं सर्वं गत्वा प्रातिपदिकत्वेन तिष्ठति इति कृत्वा यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणताश्रयः इति आगतम्. समस्तपदे तद् लिङ्गम् अपगच्छति इति वार्ता. हा अस्तु, तर्हि निरूपकनिरूप्यभावस्य विषयः आसीत्. निरूपक अत्र इतोपि एकः विषयः वक्तव्यः. आधेयता इति बहुत्र भवति खलु. अधुना यज्ञदत्तनिष्ठ आधेयता अस्ति, अहम् आसने उपविशामि चेत् पुनः तत्र आधेयता भवति किल. एतदर्थम् आधेयताः अथवा अधिकरणताः बह्व्यः भवितुमर्हन्ति, किन्तु एषा आधेयता कीदृशी इति जिज्ञासायां सत्यां, तदर्थं यज्ञ आसननिष्ठ अधिकरणतानिरूपित यज्ञदत्तनिष्ठ आधेयता इति आगच्छति. निरूप्यनिरूपकभावस्य शक्तिः अत्र अस्ति. स्पेसिफिकलि कस्मिन् कमपि वर्णयितुम् इच्छामश्चेत् तत्र निरूप्यनिरूपकभावस्य उपयोगः भवति इति अस्ति. अस्तु, इतः अग्रे गत्वा द्रव्ये गुणः अस्ति इति अस्ति खलु, अत्र तस्य निरूपणं कथं कर्तुं शक्नुमः इति पश्येम. रत्ना भगिनी साहाय्यं करोति वा चित्रस्य निरूपणे?
सप्तमे पुटे वा भगिनि?
षष्ठे पुटे.
षष्ठ, ओ अस्तु. अत्र द्रव्ये अधिकरणता अस्ति, गुणे आधेयता अस्ति, द्रव्यनिष्ठ अधिकरणतानिरूपिता आधेयताश्रयः गुणः, अथवा गुणनिष्ठ आधेयतानिरूपित अधिकरणता आश्रयः द्रव्यम् आश्रयं द्रव्यम् इति.
हा बहु समीचीनमस्ति. तर्हि द्रव्ये गुणः अस्ति इति कृत्वा द्रव्ये अधिकरणता, गुणे आधेयता इति अस्ति, तर्हि रत्ना भगिन्या यथा प्रदर्शितं निरूपकनिरूप्यभावः द्रव्यगुणयोः मध्ये, तद्वत् द्रव्यकर्मयोः मध्ये, द्रव्यसामान्ययोः मध्ये सर्वत्र प्रदर्शयितुं शक्नुमः. अधुना अग्रिमपुटं पश्यन्तु, सप्तमपुटे उपरितनभागे एकं चित्रमस्ति खलु, तत्र सप्तपदार्थाः, सर्वे पदार्थाः द्रव्यमाश्रित्य तिष्ठन्ति इति प्रदर्शितम्. इत्युक्ते द्रव्ये गुणः अस्ति, द्रव्ये कर्म अस्ति, द्रव्ये सामान्यमस्ति, द्रव्ये विशेषः, द्रव्ये समवायः, द्रव्ये अभावः. द्रव्ये स्वयं द्रव्यमपि वर्तते इति अग्रे पश्येम, किन्तु एते षड् पदार्थाः द्रव्ये सन्ति इति प्रदर्शितमस्ति. तर्हि अधुना प्रथमविचारः रत्नाभगिन्या प्रदर्शितं, द्रव्ये गुणः अस्ति इति न्यायशास्त्ररीत्या कथं वक्तुं शक्नुमः इत्युक्ते, द्रव्यनिष्ठ अधिकरणता निरूपित आधेयतावान् गुणः अथवा गुणनिष्ठ आधेयता निरूपित अधिकरणतावत् द्रव्यं. तद्वत् द्रव्यकर्मयोः मध्ये निरूपकनिरूप्यभावः अस्ति. तर्हि जगन्नाथमहोदय प्रयत्नं करोति वा वक्तुं?
द्रव्ये अधिकरणता अस्ति, ते तया निरूपित आधेयत्वं कर्मणि अस्ति.
हा, बहु समीचीनं महोदय, बहु सम्यक् रीत्या भवता अभिज्ञातं. द्रव्ये अधिकरणता अस्ति, कर्मणि किम् अस्ति? आधेयता अस्ति. अधुना तदेव स्वीकृत्य षष्ठे पुटे यद् चित्रम् अस्ति तत्र स्थापयतु तावदेव. गुणः इत्यस्य स्थाने कर्म इति स्थापयित्वा वदति चेत् सर्वं सञ्जातम्. जगन्नाथमहोदय
अस्तु, कर्म इति इति वस्तूनि वस्तु वस्तु सप्तमविभक्ति किमर्थं
कर्मणि
कर्मणि अस्मिन् कर्मणि आधेयता अस्ति, ते तया निरूपित अधिकरणता द्रव्ये अस्ति.
हा, इति तु सत्यं, परन्तु रत्ना भगिनी तमेव विषयं कथं प्रतिपादितवती अधुना? न्यायशास्त्रस्य एका रीति अस्ति खलु, द्रव्यनिष्ठ अधिकरणता निरूपित आधेयताश्रयः गुणः अथवा गुणनिष्ठ आधेयता निरूपित अधिकरणताश्रयः द्रव्यम् अथवा अधिकरणतावत् द्रव्यं. तथा
द्रव्यनिष्ठ अधिकरणता निरूपित आधेयता कर्म
आधेयता एकनिमिष आधेयताश्रयः कर्म इति वक्तव्यम्.
आधेयताश्रयकर्म अथवा कर्मनिष्ठ आधेयता निरूपित अधिकरणताश्रय द्रव्यम्.
हा, बहु समीचीनमस्ति. तद्वत् सर्वे
एकः प्रश्नः नागराज अत्र आश्रयः इति शब्द इति शब्द किमर्थम् अस्ति? द्रव्यनिष्ठ अधिकरणता निरूपित आधेयता वान् गुणः अपि सम्यक् भवति वा?
गुणः वस्तुतः गुणस्य निरूपणं खलु. गुणस्य निरूपणम् इत्युक्ते किं? गुणस्य विशेषणत्वेन आधेयता वान् इति आगच्छति. अस्तु, यदा महोदय कर्मस्य कर्मणः विषये उक्तवान् अधुना, कर्म इति नपुंसकलिङ्गपदं, तदा आधेयवत् कर्म इति आगच्छति खलु. हा, इति तु सत्यं, परन्तु आश्रयः इति नियतलिङ्गकशब्दः, विशेष्यनिघ्नः नास्ति. वान् वति वत् इति यथा मतु प्रत्यययुक्तपदानि विशेष्यनिघ्नानि भवन्ति तद्वत् नास्ति आश्रयः इति. यदा आधेयताश्रयः इति युज्यते तर्हि तस्मात् अग्रे गुणः भवतु कर्म भवतु अन्यत् किमपि भवतु तदा तथा एव भवति उद्देश्यविधेयभावः इति वदामः न तु विशेषणविशेषभावः. अस्तु अस्तु महोदय तर्हि भवान् एव अग्रिमं प्रयत्नं करोतु. द्रव्ये सामान्यम् इति कश्चन पदार्थः अस्ति तत् कथं वदति?
नागराज
महोदय
द्रव्ये सामान्यम् इति द्रव्यनिष्ठ अधिकरणता निरूपित आधेयता आश्रयः सामान्यम्.
हा बहु समीचीनं. यदि वत् अथवा मतु प्रत्यययोजनेन वदति चेत् कथं भवति?
द्रव्यनिष्ठ अधिकरणता निरूपित आधेयतावत् सामान्यम्.
हा बहु सम्यक्. अपरस्यां दिशि
अपरस्यां दिशि सामान्यनिष्ठ आधेयता निरूपित अधिकरणता आश्रयः द्रव्य.
हा बहु सम्यक् अस्ति महोदय तथा एव अस्ति. अधिकरणताश्रयः इति एकः एकमेव पदम् अधिकरणताश्रयः द्रव्यम् इति भवति नाम
द्रव्यमपि सम्यक् एव खलु.
सम्यगेव सम्यक्. यदा प्रत्ययं योजयित्वा वदति चेत् तदा एव लिङ्गभेदः वर्तते वत्वा वति अथवा वान् नो चेत् अधिकरणताश्रयः इत्येव वक्तव्यं. बुद्धं वा?
अवगतम्
अवगतं तर्हि समीचीनम्. अग्रे द्रव्ये विशेषः इत्यपि कश्चन पदार्थः वर्तते. रवि महोदय वक्तुम् इच्छति वा? अस्तु समीचीनं बुद्धं. तर्हि कः वदति? अनन्तकृष्णमहोदय द्रव्ये विशेषः इति तस्य निरूपणं कथं भवति? अनन्तकृष्णमहोदय अस्ति नो चेत् नीता भगिनी.
आं पठामि भगिनि. द्रव्यनिष्ठ अधिकरणता निरूपित आदेयताश्रयः विशेषः.
बहु समीचीनं. हा विपरीतदिशि
विशेषनिष्ठ आधेयता निरूपित अधिकरणताश्रयः द्रव्यम्.
हा समीचीनम् इति द्रव्यविशेषयोः आधाराधेयभावः निरूपितः आसीत्. अग्रे द्रव्ये पुनः समवायः इति कश्चन पदार्थः वर्तते. बालसुब्रह्मण्यं महोदय प्रयत्नं करोति वा वक्तुं?
समवायः अनिष्ट आधेयता निरूपित अधिकरणतावत् द्रव्यम्.
अपरस्यां दिशि
द्रव्यनिष्ठ अधिकरणता निरूपित आधेयताश्रयः
समवायः इति अस्ति. अस्तु समीचीनं.
समवायः शब्दस्य निरूपणम्
अग्रे भविष्यति महोदय. एतावत्पर्यन्तं वयं किं कृतवन्तः? अस्तु द्रव्यगुणकर्मसामान्यविशेषः समवायः अभावः इति इमे सप्तपदार्थाः. अस्तु लोके यावन्ति वस्तूनि सन्ति तानि वस्तूनि एषु श्रेणिषु आसु श्रेणिषु अन्तर्भूतानि भवन्ति इत्यस्य प्रदर्शनं तावदेव. अग्रे गत्वा समवायः इत्युक्ते कः, विशेषः इत्युक्ते किं, सामान्यम् इत्युक्ते किम् इति सर्वम् अग्रे आयास्यति, तदा पश्येम. अधुना केवलं केषाञ्चन पारिभाषिकशब्दानाम् अपि च निरूपकनिरूप्यभावः इत्येतावदेव अभवत्. अग्रे गत्वा सर्वं परिशीलयिष्यामः. अस्तु अन्तिमं भवानेव करोतु जगन्नाथमहोदय. द्रव्ये अभावः अस्ति इति कथं वदेम?
द्रव्यनिष्ठ अधिकरणता निरूपित आधेयताश्रयः अभावः अथवा अभावनिष्ठ आधेयता निरूपित अधिकरणताश्रय द्रव्यम्।
हा समीचीनम् इति अस्ति द्रव्य अपि च अपरः पदार्थः कश्चन तयोः मध्ये आधारादेयभावः निरूपितः। अस्तु इतः अग्रे सर्तुं शक्नुमः तर्हि। द्रोणमहोदय पठति वा तानि नवद्रव्याणि?
तानि नवद्रव्याणि सङ्ग्रहकारेण निर्दिष्टानि पृथिव्यादीनि तथा च सङ्ग्रहः तत्र द्रव्याणि पृथिव्यप्तेजो वायुवाकाश कालदिगात्मा मनांसि नवैव। सङ्ग्रहकारेण इत्युक्ते तर्कसङ्ग्रहकारेण निर्दिष्टानि नवद्रव्याणि कानि इत्युक्ते तत्र तर्कसङ्ग्रहकार तत्र पङ्क्तिम् आदाय तत्र वदति तत्र द्रव्याणि पृथिवी अर्थ जलं तेजो वायु आकाश काल दिक् आत्मा मनः इति नवद्रव्याणि केवलं तावदेव अर्थः अस्ति।
हा समीचीनं तर्हि अत्र महोदयेन केवलम् अत्र द्रव्याणां नाम्ना निर्देशः कृतः तावदेव। महोदयेन यथा उक्तं तत्र पृथिवी अप् इत्युक्ते जलं तस्मिन्नेव सन्धिकार्यं कृत्वा तस्मिन्नेव पदे अन्तर्भूतमस्ति पृथिवी अप् तेजः वायुः आकाशः कालः दिक् आत्मा मनः इति नवद्रव्याणि। इतः अग्रे अस्तु द्रव्यमिति प्रथमः पदार्थः द्वितीयपदार्थः अस्ति गुणः इति तस्य निर्देशः अग्रे क्रियते। द्रोणमहोदय
तत्र गुणान् विभक्ततः गुणान् विभजते रूप रस गन्ध स्पर्श संख्या परिमाण पृथक्त्व संयोग विभाग परत्व अपरत्व गुरुत्व द्रवत्व स्नेह शब्द बुद्धि सुख दुख इच्छा द्वेष प्रयत्न धर्म अधर्म संस्कार इति संस्काराः इति चतुर्विंशति गुणाः। पुनः अत्रापि तत्र उद्देशग्रन्थः इति पूर्वम् उक्तं केवलं नाममात्रेण वस्तुसङ्कीर्तनं केवलं नाममात्रम् अत्र उक्तं निरूपितं तत्र चतुर्विंशतिगुणाः सन्ति नैयायिकानां सिद्धान्ते के ते इत्युक्ते तत्र नाम सर्वेषामपि अत्र उल्लेखः कृतः रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्तसंयोगविभागपरत्वापरत्वगुरुत्वतवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराः चतुर्विंशतिगुणाः इति। अत्रापि केवलं तत्र नाममात्रेण नाम अत्र रूपरस तत्र नाममात्रेण केवलं तत्र कति गुणाः सन्ति इति नामकरणं केवलं सङ्कीर्तनम् एव कथनमेव उद्देशग्रन्थः इति उच्यते।
हा सम्यक् अस्ति तर्हि द्रव्यस्य नाम्ना निर्देशः जातः तदनन्तरं रूपाणां क्षम्यतां गुणानां चतुर्विंशतिगुणानां नाम्ना सङ्कीर्तनं जातं तर्हि द्रव्यं गुणः इति पदार्थद्वयस्य निरूपणं जातम्। अग्रे कर्म इति तृतीयपदार्थः तस्य विषये अपि द्रोणमहोदय अग्रे किञ्चित् पठित्वा।
केचन दार्शनिकाः कर्म इति पदार्थं नाङ्गीकुर्वन्ति अतः कर्मणि अस्ति विवादः न तथा गुणेषु गुणानाम् इयत्ताविषये विवादसत्त्वेपि गुणः अतिरिक्तपदार्थः वर्तते न वा इति नास्ति विवादः अतः गुणकर्मणोः मध्ये गुणा एव द्रव्यनिर्देशोत्तरं निर्दिष्टाः। तत्र ग्रन्थकारः वदति तत्र प्रथमं तावत् तत्र द्रव्यस्य निरूपणं कृतं तदनन्तरं किमर्थं गुणस्य निरूपणं कृतं किमर्थं तत्र कर्मस्य निरूपणं कर्मणः निरूपणं न कृतम् इति प्रश्ने सति ग्रन्थकारः वदति केचन दार्शनिकाः कर्म इति पदार्थमेव न अङ्गीकुर्वन्ति नाम कर्म इति पदार्थः नास्ति एव तेषां चिन्तने। तत्र विवादः अस्ति तस्य तत्र सत्ता कर्मणः सत्ता अस्ति वा न वा इत्यस्मिन् विषये एव तत्र विवादः अस्ति परन्तु कर्मणि तत्र गुणेषु न तथा नाम गुणः अस्ति वा न वा इत्यस्मिन् विषये तत्र कोऽपि विवादः नास्ति। विवादः कुत्र तत्र गुणस्य विषयेपि विवादः अस्ति परन्तु सः विवादः भिन्नविवादः गुणः अस्ति इति सर्वेषाम् अभिमतं सर्वे अपि चिन्तयन्ति गुणनामकः पदार्थः अस्ति एव, परन्तु परस्परं तेषां वैमत्यं कुत्र वर्तते इत्युक्ते गुणानां कियत्ता विषये, नाम तत्र कियन्तः गुणाः सन्ति, नाम गुणानां सङ्ख्याविषये, केचन वदन्ति चतुर्विंशतिः, केचन वदेयुः अन्य तत्र दश वा चतुर्दश वा, एव केवलं वदामि तत्र इयत्ता विषये सङ्ख्याविषये कति गुणाः सन्ति इति विषये विवादसत्त्वेपि गुण अतिरिक्तः पदार्थः अस्ति इति सर्वेषां मतम्, तेषां तत्र सम्मतं नास्ति कुत्र इत्युक्ते कति गुणाः सन्ति इत्यस्मिन् विषये एव केवलं तत्र विवादः, गुणस्य सत्ता विषये तु नास्ति विवादः इति कृत्वा तत्र गुणकर्मणोः मध्ये गुणा एव द्रव्यनिर्देशोत्तरं, नाम प्रथमं द्रव्यम् उक्तं तदनन्तरं तत्र गुणकर्मणोः मध्ये गुण एव तत्र निरूपितः निर्दिष्टः इति ग्रन्थकारस्य आशयः।
धन्यवादः महोदय। कोऽपि प्रश्नः वा अत्र कस्यचित्? महोदयेन यदुक्तं तद् अस्ति द्रव्यानन्तरं गुणस्य निर्देशः किमर्थं कृतः इत्यस्य विषये महोदयेन उक्तम्। अधुना तृतीयः पदार्थः अस्ति द्रव्यं, गुणः, कर्म, कर्मणः निर्देशः कथं क्रियते इति महोदय अग्रे कृपया।
ते च रूपरसगन्धस्पर्श इत्यादि सङ्ग्रहपङ्क्त्या निरूपिताः, ततः कर्मक्रिया, कर्म नाम क्रिया, निर्दिष्ट उत्क्षेपणादि ग्रन्थेन, तत्र न्यायशास्त्रे परिच्छेद इत्युक्ते गुणस्य विषये यत्किमपि उक्तं भवति तत् सः परिच्छेदः ग्रन्थः गुणग्रन्थः इति उच्यते। अतैव तत्र कर्मग्रन्थः, गुणग्रन्थः, द्रव्यग्रन्थः इति परिच्छेदस्य नाम। अत्र उक्ते उत्क्षेपणादिग्रन्थेन नाम तत्र तर्कसङ्ग्रहे तत्र तदनन्तरमेव दत्तमस्ति, उत्क्षेपणापेक्षेपण आकुञ्चनप्रसारणगमनानि पञ्चकर्माणि इति वाक्यं यदस्ति तद्वाक्यं तदनन्तरवर्ति अपि तत्र वाक्यमस्ति, अन्यानि अपि वाक्यानि तत्र सन्ति, सर्वाणि अपि वाक्यानि कर्मविषयकाणि, नाम कर्मस्य एव, कर्मणः एव विषये तेषां योगः इति कृत्वा तान् तत्र वाक्यसमूहः ग्रन्थः, तत्र कर्मग्रन्थः इति उच्यते। तर्हि अत्र उत्क्षेपण अपक्षेपण आकुञ्चनप्रसारणगमनानि पञ्चकर्माणि, अत्रापि केवलं पुनः एकवारं वदामः, केवलं तत्र नाम करणमेव, तत्र नाम्ना एव तत्र वस्तुसङ्कीर्तनं, पदार्थ नाम वस्तु इत्युक्ते अत्र कर्म, कर्मणः सङ्कीर्तनं नाम अत्र उत्क्षेपण अपक्षेपण आकुञ्चनप्रसारणगमनानि गमनम्। तर्हि पूर्वोक्तानां गुणानां कर्मणां च विस्तृतं विवरणम् अग्रिमे अस्ति, तावदेव अस्ति, लक्षणप्रकरणे भविष्यति। सम्प्रति एव पुनः उक्तं, सम्प्रति इदानीं नाम्ना सङ्कीर्तनमेव भवति, तत्र नाम्ना सङ्कीर्तनम् एव अत्र उद्देशग्रन्थः इति कथ्यते। तत्र किञ्चित् केवलं तत्र विशेषः अस्ति, न्यायभाष्ये तत्र प्रथममेव वात्स्यायन तथा वदति, तत्र शास्त्रस्य त्रिधा प्रसक्तिः भवति उद्देशलक्षणपरीक्षा इति वात्स्यायनस्य न्यायभाष्ये तदस्ति इति केवलं वदामि तावदेव।
हा हा, धन्यवादः महोदय। अस्तु, तर्हि एतावत् पर्यन्तं त्रयाणां पदार्थानां नाम्ना सङ्कीर्तनं जातं, द्रव्यस्य, गुणस्य, अपि च अधुना महोदयेन यत् पठितं कर्मणः, कर्मणः निर्देशे सङ्कीर्तने उत्क्षेपण अपक्षेपण आकुञ्चन प्रसारण गमनम् इति पञ्चकर्माणि केवलं प्रतिनिधिरूपेण स्वीकृतानि खलु महोदय? हा, तर्हि यद्यपि पञ्चकर्माणि एव अत्र निर्दिष्टानि तथापि सर्वाणि कर्माणि अत्र अन्तर्भूतानि इति ज्ञेयम्। अस्तु, इति कर्म इति तृतीयपदार्थः। अधुना अग्रिमपृष्ठं पश्यन्तु, तत्र सर्वे गुणादयः द्रव्ये वर्तन्ते इति वारं वारम् उक्तं खलु, तर्हि कः कस्मिन् वर्तते इत्यस्य निर्देशः प्राप्यते अस्मिन् चित्रे। नीता भगिनी,
एकः अन्यः प्रश्नः कति कर्माणि सन्ति पूर्णतया?
तत्र
तत्र वदामः चेत् अनन्त एव अनन्त एव, परन्तु तेषां वर्गीकरणं भवति यथा तत्र भगिनी उक्तवती प्रथमं तत्र सम्पूर्णानां तत्र प्रत्येककर्मव्यक्तीनाम् अध्ययनं दुःशकम् इति कृत्वा वर्गीकरणं कृत्वा एकस्य एकस्य वर्गस्य एव अध्ययनं सुकरम् इति कृत्वा तत्र वर्गीकरणं कृतम् उत्क्षेपणं तत्र गमनम् इति अस्ति तत्र उत्क्षेपणम् इद प्रथममेव पश्यामः तत्र रामः कमपि कन्दुकं स्वीकृत्य उत्क्षिपति तत्र तत्र कर्मव्यक्ति तदनन्तरं पुनः कृष्णः उत्क्षिपति तदपि उत्क्षेपणं व्यक्तिरूपेण तस्य अध्ययनं न क्रियते तत्र सर्वेषामपि उत्क्षेपण तत्र क्रियाणां तत्र कर्मणाम् उत्क्षेपणे इति उत्क्षेपण इति नामके वर्गे अन्तर् भावः क्रियते तथा तस्य अध्ययनं क्रियते अनन्तः तत्र कर्माणि सन्ति
परन्तु तर्हि सर्वाणि कर्माणि पञ्चवर्गे आगच्छन्ति
अन्तर्भूतानि एवं
पञ्चवर्गेषु
तथैव तत्र रूपस्य विषये अपि तथैव महोदय खलु रूपस्य विषये अपि तत्र नीलहरितचित्ररूप तत्रापि व्यक्ति तत्र बहवः तत्र व्यक्तयः सन्ति परन्तु तत्र सर्वेषामपि तत्र वर्गे अन्तर्भावः क्रियते तेन किं भवति इत्युक्ते अध्ययनस्य सौकर्यं भवति
अस्तु धन्यवादः जगन्नाथमहोदय सम्यक् वा अस्तु
धन्यवादः
अस्तु तर्हि अग्रिमचित्रं किञ्चित् नीता भगिनी निरूपयति वा
आं भगिनि तत्र सर्वे गुणादयः द्रव्ये वर्तन्ते इत्यस्य पूर्वोक्तस्य अयम् अर्थः विवक्षितः द्रव्ये इति पदार्थे द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः इति सप्तपदार्थाः द्रव्ये एव भवन्ति इति अर्थः
सर्वं द्रव्यम् आश्रित्य तिष्ठन्ति द्रव्ये द्रव्यमपि अस्ति
अस्तु अन्ये सामान्यं समवायः अभावः इति पदार्थाः गुणे तिष्ठन्ति अत्र द्रव्यं कर्मविशेषः न गुणे न तिष्ठन्ति इति अपि वयं अर्थः इति भवति अपि भवति
गुणे द्रव्यगुणकर्म तिष्ठति एकनिमिषः गुणे सामान्यं समवायः अभावः हा गुणे द्रव्यगुणकर्मविशेषः नास्ति इति अत्र सत्यं भगिनि अग्रे
अन्यं सामान्यं समवायः अभावः कर्म इति पदार्थे भवति अपि द्रव्यं गुणः कर्म विशेषः च नास्ति इति अपि अर्थः भवति अन्ये समवायः अभावः इति पदार्थः सामान्ये अस्ति द्रव्यं गुणः कर्म सामान्यं विशेषः च नास्ति इति अर्थः अपि भवति विशेषः इति पदार्थे समवायः अभावः भवति पूर्वोक्तः पञ्चपदार्थाः न सन्ति इति अर्थः अस्तु अभावः इति पदार्थः समवाये अस्ति समवाये षट् पदार्थाः न सन्ति इति अर्थः अन्ये अभावः अभावे भवति अभावः इति द्रव्ये भवति अभावे षट् पदार्थाः न सन्ति इति अर्थः
हा समीचीनमस्ति तर्हि अभावः इति एकः पदार्थः अस्ति यद् सर्वेषु पदार्थेषु वर्तते. तर्हि अभावस्य अधिकरणानि कानि कानि इति भगिनि.
पुनः भगिनि,
अभावस्य अधिकरणानि कानि तत्र?
द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः.
हा, तर्हि अभावस्य सप्त अधिकरणानि खलु, यतोहि अभावः सर्वेषु वर्तते. अधुना सामान्यस्य कति अधिकरणानि? सामान्यं कुत्र कुत्र वर्तते?
द्रव्यं, गुण, कर्म, सामान्य, विशेषः.
एकनिमिष, सामान्यं कुत्र कुत्र वर्तते इति परिशीलयतु.
क्षम्यतां, द्रव्ये, गुण, कर्म इति त्रीणि द्रव्ये पदार्थानि एव भवन्ति.
हा, त्रीणि अधिकरणानि अस्ति सामान्यस्य. अधुना कर्म इति कुत्र कुत्र वर्तते?
कर्म केवलं द्रव्ये एव भवति
इति तस्य एकमेव अधिकरणं. तद्वत् गुणः अपि कुत्र वर्तते?
गुणः केवलं द्रव्ये एव भवति
इति तस्यापि एकमेव अधिकरणम् इति प्रदर्शितमस्ति. कः पदार्थः कस्मिन् वर्तते इति अस्मिन् चित्रे प्रदर्शितमस्ति. अस्तु, अधुना चतुर्थः पदार्थः सामान्यम् इति. द्रव्यं, गुणः, कर्म, अनन्तरं सामान्यम् इत्यस्य उल्लेखः क्रियते. तत्र अनन्तकृष्णमहोदय अस्ति वा? नास्ति. नागराजमहोदय अग्रे पठितुमिच्छति?
अस्तु महोदय. सामान्यपदार्थनिरूपणं, तस्य सामान्यस्य त्रीणि अधिकरणानि निरूप्य आधेयं सामान्यं निर्दिशति. परमपरं चेति द्विविधं सामान्यम् इति. यद्यपि स्वयं ग्रन्थकारः उपरिष्टात् सामान्यलक्षणं वदिष्यति, तथापि सम्प्रदायरीत्या सामान्यसाधनाय यतितव्यम् इत्युक्ते किं भगिनि?
प्रयत्नः करणीयः इति.
सम्प्रदायरीत्या सामान्यसाधनाय यतितव्यम्, इत्थं च जातिसाधनमाहुः. बालं माता गवाक्षात् कञ्चन प्राणिनां प्रदर्श्य इयं गौः इति वदति, ततः तमेव बालमादाय पिता उद्यानं गच्छति. मार्गे पूर्वदृष्टसदृशाकारं प्राणिनं दृष्ट्वा बालः इयं गौः इति वक्ति.
अस्तु महोदय, एतावत् अस्तु. एतावत् पर्यन्तं किम् अवगतम्?
किम् अवगतम् इत्युक्ते सामान्यस्य रूपद्वयं भवति, परमपरं.
हा, बहु समीचीनम्. आरम्भे वस्तुतः अस्माकं मूलवर्गे यद् महोदयस्य आगमनानन्तरं भवति तदा वाक्यशः परिशीलयामः, किन्तु अत्रैव स्थूलरीत्या समयस्य अभावे सति कुर्मः इति कृत्वा सारांशत्वेन वदतु. प्रथमं सामान्यपदार्थनिरूपणे किं कुर्वन्ति? सामान्यस्य त्रीणि अधिकरणानि सन्ति इति निरूप्य आधेयं सामान्यं निर्दिशति. अधिकरणम् अस्ति चेत् आधेयम् अस्ति खलु?
अस्तु.
हा, सामान्यस्य त्रीणि अधिकरणानि कानि?
सामान्यस्य त्रीणि,
इदानीं नीता भगिन्या प्रदर्शितं खलु चित्रे, प्रदर्शितं सामान्यस्य त्रीणि
अधिकरणानि. द्रव्यं, गुणं, कर्म.
हा, द्रव्यं, गुणः, कर्म इति सामान्यस्य त्रीणि अधिकरणानि निरूप्य अधिकरणम् अस्ति चेत् आधेयम् अस्ति. अत्र आधेयं किम्? अधिकरणम् अधिकरणं द्रव्यं तस्मिन् सामान्यम् अस्ति खलु इति प्रदर्शितं, तर्हि सामान्यं किम् अत्र? इत्युक्ते आसनम् इति अधिकरणम् अस्ति, तस्मिन् यज्ञदत्तः अस्ति इति कृत्वा यज्ञदत्तः आधेयः खलु. तद्वत् भवता उक्तं सामान्यस्य त्रीणि अधिकरणानि, द्रव्यगुणः कर्म. इत्युक्ते सामान्यं द्रव्ये अस्ति, गुणे अस्ति, कर्मणि अस्ति, इति अधिकरणानि सन्ति. द्रव्यम् अधिकरणं चेत् सामान्यं किं तर्हि? यथा यज्ञदत्तः अस्ति तथा खलु. तथा सामान्यम् आधेयः आधेयम् अस्ति इत्येव प्रथमवाक्यस्य अर्थः. इति प्रथमवाक्यस्य अर्थः. सामान्यस्य त्रीणि अधिकरणानि निरूप्य, त्रीणि अधिकरणानि प्रदर्श्य आधेयं सामान्यम् अग्रे निर्दिशति इति वदन्ति. अस्तु, अग्रे सामान्यस्य निर्देशनावसरे किं कुर्वन्ति? परम् अपरं च इति द्विविधं सामान्यम् इति वदन्ति. अस्तु, परं सामान्यम् अपरं सामान्यम् इति द्वैविध्यम् अस्ति सामान्ये, तत् किम् इति अग्रे परिशीलयिष्यामः. तस्य उदाहरणार्थं गौः विषयः उत्थापितः. तत्र भवता यत् पठितं तस्य सारांशः कः?
तस्य सारांशः
इच्छति इच्छति चेत् इतोपि एकवारं पठतु परिच्छेदं पुनः. यद्यपि
यद्यपि स्वयं ग्रन्थकारः उपरिष्टात् सामान्यलक्षणं वदिष्यति, तथापि सम्प्रदायरीत्या सामान्यसाधनाय यतितव्यम् इत्थं च जातिसाधनमाहुः. बालं माता गवाक्षात् कञ्चन प्राणिनं प्रदर्श्य इयं गौः इति वदति, ततः तमेव बालमादाय पिता उद्यानं गच्छति. मार्गे पूर्वदृष्टसदृशाकारं प्राणिनं दृष्ट्वा बालः इयं गौः इति वक्ति. अत्र सामान्य उपमानरीत्या साधारण सामान्यत्वं निरूपितमस्ति.
हा, समीचीनम्. उपमानरीत्या अथवा उदाहरणरीत्या, अत्र उदाहरणं किम्?
गौः.
हा, इत्युक्ते माता एकवारं प्रदर्शयति, गां प्रदर्श्य बालं वदति इयं गौः इति. अस्तु, हा, ततः अग्रे पिता अपरं गां प्रदर्श्य पृच्छति चेत् किं कः किं प्राणी कः प्राणी इति, तदा अपि बालः वदति इयं गौः इति. यद्यपि एकः अपरस्मात् भिन्नः, एका गौः अपरस्याः भिन्ना एव इति तु सत्यं खलु, तथापि सः बालः अभिज्ञातुं शक्नोति इयं गौः इति. कथम् इति चेत् अवयवानां साम्यं भवति, यद्यपि भिन्ना गौः एव किन्तु अवयवानां साम्यं भवति खलु. शृङ्गम् इत्यादिकं साम्यं दृष्ट्वा, इत्यादीनां साम्यं दृष्ट्वा सः अभिजानाति इयमपि गौः इयमपि गौः इति. तर्हि किं वदामः इति चेत्, तत्र गोत्वम् इति कश्चन धर्मः अस्ति, अथवा गोत्वम् इति कश्चन जातिः अस्ति. सामान्यम् इत्युक्ते वस्तुतः जातिः इत्येव अर्थः. अस्तु, गोत्वम् इति जातिः अस्ति, जातिम् अभिज्ञाय बालः जात्यां ये सदस्याः भवन्ति, कृष्णगौः वा नील क्षम्यतां श्वेतगौः वा या कापि गौः भवति गोत्वजातौ अथवा गोत्वसामान्ये, तां बालः वक्तुं शक्नोति इयं गौः इति. गोत्वम्
एकः अपरः प्रश्नः अस्ति. पूर्व अत्र प्राणिनम् इति एकं चिह्नमस्ति, पिण्ड इति शास्त्रे व्यवह्रियते इति फुट् नोट् अस्ति.
द्रोणमहोदय किमपि वक्तुम् इच्छति वा तस्य विषये? महोदय न गतम् इति भाति.
किञ्चित् विवरणं
प्रायः शास्त्रीयरीत्या तत्र प्राणिनः पिण्ड इति व्यवहारः अस्ति इति भाति, अथवा प्रत्येकस्मिन् सामान्ये अथवा जात्यां, सामान्यम् इत्युक्ते जातिः तावदेव, गोत्वम् इति एका जातिः तावदेव, तर्हि प्रत्येकस्मिन् जात्यां ये प्राणिनः भवन्ति अथवा सदस्याः भवन्ति तस्य पिण्ड इति शास्त्रे व्यवहारः इति भाति. किन्तु अग्रिमसप्ताहे वदिष्यामि स्पष्टीकृत्वा, अथवा द्रोणमहोदय आगच्छति चेत् सः जानीयात् इति अस्ति. सामान्यम् इत्युक्ते जातिः तावदेव. अस्तु अस्तु, इतः अग्रे सरेम. तर्हि रत्ना भगिनी पठति वा?
आम्, तत्र पूर्वम् इति वा भगिनि? अस्तु, तत्र पूर्वं या गौः तेन दृष्टा सा अन्या, इयं च अन्या. सा कृष्णा आसीत्, इयं तु श्वेता. अतः उभयोः रूपमपि भिन्नम्. उभयोरपि शृङ्गपादादयः अवयवाः अपि परस्परं भिन्नाः. तर्हि किं दृष्ट्वा सः बालः गौः इयम् इति सम्यक् ज्ञातवान्? तदेव शास्त्रकारैः सामान्यम् इत्युच्यते. समानानां धर्मः सामान्यम्. एकविध अवयवादिजन्यानि यानि गोशरीराणि, तत्र सर्वत्र एकः अनुगतः धर्मः वर्तते. अनुगतः इत्यस्य सर्वत्र विद्यमानः इत्यर्थः. एवं च गवाक्षात् बालः गोशरीरं गोत्वसामान्यं च उभयं पश्यति. मात्रा इयं गौः इत्युक्तौ गोशब्दस्य गोत्वशरीरयोः च सम्बन्धमपि जानाति. ततः उद्यानमार्गे पुनः नूतनां गां तत्र गोत्वं च पश्यति. गोशब्दं स्मृत्वा गौः इयमिति च वक्ति. अस्तु, यथा भवत्या उक्तं, बालः पूर्वं एकां गावं पश्यति, अनन्तरं द्वितीयं पश्यति. प्रथमं कृष्णवर्णीया आसीत्, द्वितीयं श्वेतवर्णीया आसीत्. उभयोः रूपमपि किञ्चित् भिन्नम् आसीत्. उभयोः शृङ्गपादादयः, प्रथमायाः पादाः भिन्नाः, द्वितीयाः पादाः भिन्नाः, शृङ्गाः अपि भिन्नाः, अन्ये अवयवाः अपि भिन्नाः द्वयोः. किन्तु प्रथमं दृष्ट्वा बालः द्वितीयम् अपि गौः इति ज्ञातुं शक्नोति. कथम् इत्युक्ते तदेव शास्त्रकारैः उक्तं सामान्यम् इति. सामान्यम् इत्युक्ते समानानां धर्मः अथवा जातिः, स्वभावः, क्षम्यतां, समानानां धर्मः अथवा स्वभावः सामान्यम् इति वदामः. इत्युक्ते एकविध अवयव आदिजन्यानि, इत्युक्ते गोशरीरे ये अवयवाः आसन्, प्रथमगोशरीरे ये अवयवाः आसन्, तत् दृष्ट्वा तथा एव, समानम् इति न, किन्तु तथा एव द्वितीयगोशरीरे अपि अस्ति इति दृष्ट्वा, यानि गोशरीराणि तत्र सर्वत्र एकः अनुगतः धर्मः वर्तते. यानि अवयवानि प्रथमे गोशरीरे सन्ति तथाविध अवयवानि द्वितीयगोशरीरे अपि सन्ति, तदेव धर्मः इति वदामः. अनुगतः इत्युक्ते विद्यमानाः, अनुगताः इत्युक्ते. एवं च गवाक्षात् बालः गोशरीरं गोत्वसामान्यं, पुनः बालः गोशरीरं दृष्ट्वा गोत्वसामान्यम् अपि अवगच्छति. उभयत्र गोत्वसामान्यं गोशरीरं पश्यति चेत् इयमपि गौः इति सः वक्तुं शक्नोति. गोशब्दं स्मृत्वा गौः इति वदति, सामान्यानि उभयत्र सामान्यं दृष्ट्वा.
हा समीचीनं भगिनि. तर्हि समानम् इत्युक्ते समानानां धर्मः, क्षम्यतां, सामान्यम् इत्युक्ते समानानां धर्मः. समानाः कया दृष्ट्या इत्युक्ते यथा भगिन्या पठितम् एकविध अवयवाः यस्य भवन्ति, यथा पुस्तकानि. न्यायशास्त्रे वस्तुतः सर्वाणि वस्तूनि भिन्नानि, एकं पुस्तकम् अपरस्मात् भिन्नं, परन्तु तेषाम् अवयवेषु कश्चन साम्यं वर्तते. सर्वेषां पुस्तकानां पृष्ठाः भवन्ति इति कृत्वा कश्चन साम्यं तु किञ्चन साम्यं वर्तते. तत् साम्यम् आधारीकृत्य समानानां धर्मः सामान्यम् अथवा जातिः इति वदामः. सर्वेषां सर्वासां गोषु गोत्वम् इति जातिः यथा भवति, अथवा गोत्वम् इति सामान्यं यथा, तद्वत् पुस्तकेषु पुस्तकत्वम् इति सामान्यं भवति इति सारांशः. तद्वत् पृथिवी पृथिव्यां पृथिवीत्वम् इति. महोदय
प्रश्नः अस्ति. सा भगिनी उक्तवती प्रायः मया अवगतं सामान्यम् इत्युक्ते जाति अथवा स्वभावः.
भगिनी भगिनी उक्तवती धर्मः इत्युक्ते स्वभावः,
धर्म इत्युक्ते स्वभावः. अत्र किन्तु सर्वे उदाहरणानि दर्शनविषयाः एव आसन्. तर्हि स्वभावः वा स्वरूपः वा तत्र?
तत्र हा स्वरूपम् इति यद्वदति भवान्, आकारः. सर्वेषां गवाम् एकरीति भवति खलु रूपः अथवा आकारः. तर्हि सर्वासां गवाम् एकरीत्या एकविधरूपमेव भवति, यद्यपि अवयवाः भिन्नाः, किन्तु रूपं तु किञ्चित् साम्यं भवति एव. यथा पुस्तकं दृष्ट्वा पुस्तकं लघुपुस्तकं पश्यति चेदपि पुस्तकत्वं भासते, बृहत् पुस्तकं पश्यति चेत् पुस्तकत्वं भासते. तदेव अत्र धर्मः अथवा स्वभावः इति उक्तम्. पुस्तकेषु पृष्ठाः भवन्ति, नो चेत् पुस्तकं पुस्तकं नास्ति खलु इति हा इति पुस्तकस्य स्वभावः. सः एव धर्मः इति अपि वक्तुं शक्नुमः. पुस्तकत्वम् इति धर्मः न्यायशास्त्रे तादृशव्यवहारः, पुस्तकत्वम् इति धर्मः अथवा स्वभावः. किन्तु यथा भवता उक्तं सर्वदा तत्तु केवलं हा दर्शनमात्रेण इति न, बहवः स्वभावाः अन्तर्भूताः भवन्ति. इयं गौः गौः इति वक्तुं बहवः स्वभावाः आवश्यकाः खलु. शृङ्गम् इति एकम् एकविधपादं, गवां पादं किं कुक्कुरस्य पादात् किञ्चित् भिन्नः एव भवति पादः. तादृशस्वभावः अत्र वदामः. तत्सर्वं सङ्गृह्य धर्मः अथवा स्वभावः इति उच्यते. अस्तु, समानानां धर्मः सामान्यम् अथवा जातिः. सामान्यम् इत्युक्ते जातिः, तावदेव. अस्तु, अग्रे वाक्यत्रयम् अस्ति, पठित्वा समापयामः. सभ्यसाची महोदय अस्ति वा?
आं भगिनि. तथा च सामान्यपदार्थस्वीकारे अपूर्वगोव्यक्तेः ज्ञानं न स्यात्, अतः सामान्यं वश्यं स्वीकार्यं, तदेव शास्त्रे जातिः इति व्यवह्रियते. तल्लक्षणविचारः सङ्ग्रहानुसारेण्येव भविष्यति. तथा च सामान्यपदार्थस्वीकारे अपूर्वगोव्यक्ते ज्ञानं न स्यात्, तथा च सामान्यपदार्थस्वीकारे अपूर्वगोव्यक्तेः ज्ञानं न स्यात्. प्रथमवाक्यं न अवगच्छामि पूर्णतया.
अत्र सामान्यपदार्थस्य स्वीकारे इत्युक्ते गोत्वम् अथवा पुस्तकत्वम् इत्यस्य स्वीकारे अथवा इत्यस्य अवगमनार्थम् अपूर्वगोव्यक्तेः ज्ञानं न स्यात्. अपूर्वः इत्युक्ते विलक्षण, अस्तु, सर्वासां गवां न स्यात् ज्ञानम् अस्माकं, सर्वेषां पुस्तकानां ज्ञानं तु नास्ति खलु,
किन्तु समीचीनं,
हा किन्तु पुस्तकम् इति सामान्यं तु अभिज्ञातुं शक्नुमः इति एव अस्ति. सर्व अपूर्वगोव्यक्तेः व्यक्तिः इति अपि कश्चन पारिभाषिकशब्दः. व्यक्तिः इत्युक्ते सदस्यः. प्रत्येकस्यां जातौ याः सदस्याः भवन्ति ते व्यक्तिः इत्यनेन निर्दिष्टाः. तर्हि विलक्षणव्यक्तेः ज्ञानं न स्यात्, परन्तु सामान्यस्य ज्ञानं तु भवति एव. अस्तु, अग्रे महोदय.
तर्हि सर्वम् इति न जानीमः, परन्तु एकं जानीमः चेत् तत् अवयवानुसारं द्वितीयं दृष्टं चेत् तत् गौः इति वक्तुं शक्नुमः. तर्हि एवम् अस्ति. तर्हि तत्र लिखितम् अस्ति, अतः सामान्यं वश्यं स्वीकार्यं, तदेव शास्त्रे जातिः इति व्यवह्रियते. तर्हि जातिः इत्युक्ते गौः इति जातिः अस्ति. सर्वं न दृष्टं, परन्तु एकं जानीमः चेत् तदानुसारम् अन्य एक गौः अस्ति अथवा पुस्तकम् अस्ति इति वक्तुं शक्नुमः. तल्लक्षण्यविचारः सङ्ग्रहानुसारेण्ये एव भविष्यति. इत्युक्ते तथा एव अस्ति. इत्युक्ते एकं जानीमः चेत् तदानुसारेण अन्यं किं भविष्यति इति जानीमः. सर्वं जाति एव न दृष्टं, परन्तु एकं जानीमः चेत् तत् जातेः अन्य कोऽपि अस्ति चेत् तत् वक्तुं शक्नुमः.
हा समीचीनं महोदय. तल्लक्षणविचारः इत्युक्ते प्रत्येकस्य जातेः, प्रत्येकस्याः जातेः किञ्चन लक्षणं तु वर्तते एव, विशिष्टलक्षणं. तत्तु अग्रे गत्वा जानीमः. सङ्ग्रहानुसारेणैव, तर्कसङ्ग्रहस्य अनुसारेण लक्षणभागे भविष्यति. अधुना केवलं सामान्यम् इत्युक्ते किम् इति जानीमः. समानानां धर्मः सामान्यम् इति, जातिः इत्यपि व्यवह्रियते इति वार्ता अस्ति. अस्तु,
एकनिमिषम्, अत्र एकं वक्तुम् इच्छामि. तत्र वेङ्कटेशः अत्र मार्गे पूर्वदृष्टसदृशाकारं प्राणिनम् इति तत्र उपरि चिह्नम् अस्ति किल, तत्र मम अवगमनम् अस्ति यद्यपि लौकिके प्राणी इति वयं वदामः तत्र तस्मिन् जीवा अस्ति, परन्तु यदा पिण्डः इति वयं वदामः तत्र केवलं मांसः एव, तत्र जीवा इति वक्तव्यम् इति आवश्यकं नास्ति. शास्त्रे तथा व्यवह्रियते, केवलं फ्लेशि मास् इति प्रायः तथा एव तत्र स्वीक्रियते. अत्र प्राणी इति वदनेन तत्र तस्मिन् जीवा अस्ति. इदानीं गौः इति वयं वदामः तत्र तस्यां जीवा अस्ति, अतः प्राणी इति वक्तुं शक्नुमः लौकिके. तत्र शास्त्रे तु तदेव तत्र पिण्डः इति व्यवह्रियते इति.
ओ ओ ओ ओ अस्तु अस्तु, बहु धन्यवादः महोदय स्पष्टीकरणार्थम्. अस्तु अस्तु, इत्येव अस्ति. नागराजमहोदयस्य प्रश्नः आसीत् खलु?
अहमपि अवगतवान् इदानीं.
हा हा, समीचीनमस्ति, धन्यवादः महोदय. अस्तु अस्तु, तर्हि अत्र स्थगयामः. अग्रिमवर्गे इतः अग्रे सरेम. धन्यवादाः,
धन्यवादः, नमस्कारः.
Thank you.